इति पुराणोक्त फल प्राप्त्यर्थं सर्वेषां जनानां
मासानामुत्तमे माघमासे
धारा